विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजागुंसि यो अस्कभायदुत्तरगुं सदस्थं विचक्रमाणस्त्रे घोरुगायो विष्णोरराटमसि विष्णो हृष्टमसि विष्णोष्णप्त्रे एस्थो विष्णु स्यूरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा तदस्य प्रियमभिपातो अश्याम् नरो यत्र देवयवो मदन्ति उरुक्रमस्य स हि बन्धुरित्था विष्णो पदे परमे मध्व उत्सह प्रतद्विष्णुस्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः यस्योरुषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा परो मात्रया तनुवावृधान न ते महित्वमन्वश्नुवन्ति उभे ते विद्मरजसि पृथिव्या विष्णो देवत्वं परमस्य वित्से विचक्रमे पृथिवी मेष एताम् क्षेत्राय विष्णोर्मनुषे दशस्यन् ध्रुवासो अस्य कीरयोजना सह उरुक्षितिगुं सुजनिमा चकार त्रिर्देवः पृथिवी मेष एताम् विचक्रमे शतर्च सम्महित्वा प्रविष्णुरस्तु तव सस्तवीयान् त्वेष गुह्यस्य स्थविरस्य नाम अतो देवा अवन्तु नो यतो विष्णोर्विचक्रमे पृथिव्या सप्तधामभिः इदं विष्णोर्विचक्रमे त्रेधानि दधे पदम् समूढमस्य पागुं सुरे त्रीणि पदा विचक्रमे विष्णोर्गोपा अदा आभ्यः ततो धर्माणि धारयन् विष्णो कर्माणि पश्यत यतो व्रतानि पस्पशे इन्द्रस्य युज्यः सखा तद्विष्णो परमं पदगुं सदा पश्यन्ति सूरयः दिवि वचक्षुराततम् तद्विप्रासो विपन्यभो जागृवागुं सस्समिन्धते विष्णोर्यत्परमं पदम् पर्याप्त्या अनन्तरायाय सर्वस्तोमोति रात्रवुत्तममहर्भवति सर्वस्याप्ति सर्वस्य जित्यै सर्वमेव तेन आप्नोति सर्वं जयति ॐ शान्ति शान्ति शान्तिः।